इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् भारतं तत्राष्ट्रं भवितुमर्हति यत्र मानवाधिकाराणां न केवलं रक्षणं भवति अपि च तेषां सम्मानं भवति। भारतस्य प्रमुख सांस्कृतिक आध्यात्मिक महोत्सवेषु अन्यतमः दीपावली पर्व अद्य यूनेस्को इत्याख्यायाः अमूर्त सांस्कृतिक सूच्यां समाविष्टः। अमेरिकादेशस्य बृहत्तिक जॉइंट अमेजन इत्यनेन समवायेन 30+2000 यावत् भारते 35 कोटि रूप्यकाणां निवेशस्य घोषणा कृता। बेल्जियम देशस्य सर्वोच्च न्यायालयेन भारतीय पलायकः मेहुल चौकसी इत्येतस्य प्रत्यर्पणस्य याचिका निरस्तीकृता। अपि च चेन्नई नगरे संजातायां स्क्वैश विश्वकप स्पर्धाया पूल बी इति वर्गे भारतदलेन स्विट्जरलैंड दलं 4-0 इत्यंकन्तरालैः पराजित्य उत्कृष्ट आरम्भ कृत। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् भारतं तत्राष्ट्रं भवितुमर्हति यत्र मानवाधिकाराणां न केवलं रक्षणं भवति अपि च तेषां सम्मानं भवति। मानवाधिकार दिवसमाधृत्य राष्ट्रिय सम्मेलनं सम्बोधितवती राष्ट्रपति अवदत् यत् गरिमायाः विषयः सर्वोपरि वर्तते। सा प्रोक्तवती यत् मानवाधिकार दिवसः न्यायपूर्णस्य समानतायाः सुसमाजस्य च पृष्ठभूमिं सृजति। सा अवदत् यत् न्यायं प्राप्तुं सर्वेषां जनानां जन्माधिकारः भवेत् इति।
Human rights are contained in the vision of our constitution, highlighting our constitutional objectives. Baba Saheb Dr. Bhimrao Ambedkar had said, we must make our political democracy a social democracy as well. Human rights promote social democracy. Human rights encompass the right to live without fear, to learn without barriers, to work without exploitation, and to age with dignity.
राष्ट्रपतिः प्रोक्तवती यत् भारतस्य मानवाधिकारस्य वैश्विकरूपरेखायाः स्वरूपीकरणे महती भूमिका अस्ति। सा उल्लेखितवती यत् संविधानसभायाः 15 सदस्यमहिलासु एका हंसा मेहता सार्वभौमिक मानवाधिकारस्य घोषणापत्रं सज्जीकर्तुं महत्वपूर्णां भूमिकां निर्वहत्। राष्ट्रपतिः अवदत् यत् देशस्य स्वतन्त्रतासेनानिनः मानवीय गौरवस्य समानतायाः न्यायस्य चाधृत्य विश्वस्य कल्पना विहिता। सा प्रकाशितवती यत् विभिन्नानां प्रभावी योजनानां आर्थिक सहभागितायाः महिलानां गरिमायाः च माध्यमेन देशस्य आत्मनिर्भरता सुदृढा जाता। ध्येयास्पदं वर्तते यत् दिसम्बर मासस्य 10 दिनांके प्रतिवर्ष मानवाधिकार दिवसः आचर्यते। भारतस्य प्रमुख सांस्कृतिक आध्यात्मिक महोत्सवेषु अन्यतमः दीपावली पर्व अद्य यूनेस्को इत्याख्यायाः अमूर्त सांस्कृतिक सूच्यां समाविष्टः। अस्मिन् अवसरे संस्कृति पर्यटन मन्त्री गजेन्द्र सिंह शेखावतः अवदत् यत् प्रत्येकस्य भारतीयस्य कृते एषः भावनात्मकः समयः वर्तते। गृहमन्त्री अमितशाहः केन्द्रीयमन्त्री जगत् प्रकाश नड्डा चोभौ अद्य दीपावली पर्वणः यूनेस्को इत्याख्यायाः अमूर्त सांस्कृतिक धरोहरस्य प्रतिनिधि सूच्यां समाविष्टे सति प्रसन्नतां प्रकटितवन्तौ। अन्तर्जालीय सामाजिक सन्देश माध्यमेन श्रीशाह प्रोक्तवान् यत् एषा मान्यता आधुनिक युगेऽपि भारतस्य प्राचीनं सांस्कृतिकं महत्वं प्रकटयति। अपरत्र श्रीनड्डा प्रोक्तवान् यत् एषः गर्वस्य विषयः अस्ति। अस्मिन्नवसरे विदेशमन्त्री एस जयशंकरः प्रोक्तवान् यत् यूनेस्को इत्याख्याया मूर्त सांस्कृतिक धरोहर दीपावली इत्येतस्य पर्वणः समावेशः सांस्कृतिक धार्मिक आध्यात्मिक महत्वस्य च मान्यता वर्तते। सः जनान् एकत्रीकर्तुम् एतस्य पर्वणः महत्वम् अपि प्रकाशितम्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। जीवन्तस्य जनकेन्द्रितस्य उत्सवस्य च स्वरूपस्य उपरि बलं प्रदध्यौ मन्त्रिणा प्रोक्तं यत् दीपावली महोत्सवः कोटिशः जनानां योगदानेन वर्धते। तेषु पारम्परिक दीप निर्मातृणः, कुम्भकाराः, उत्सव अलंकरण निर्मातृणः, शिल्पिनः, कृषकाः, मिष्टान्न निर्मातृणः, पुरोहिताः, युगानुयुगे परम्पराः धारयन्तः परिवाराः च अन्तर्भवन्ति। दक्षिण पूर्व एशिया अफ्रीका खाड़ी देशेषु यूरोपे कैरिबियन देशेषु च आयोजनैः दीपावल्याः सन्देशं सर्वेषु महाद्वीपेषु प्रसारितवन्तः। भारतीय प्रवासीजनानां भूमिकाम् अपि श्रीशेखावतवर्यः प्राशंसत्। अमेरिकादेशस्य बृहत् टेक् ज्वाइंट अमेजन इत्यनेन समवायेन 30-2000तमवर्षपर्यन्तं भारते 35 कोटि रूप्यकाणां निवेशस्य घोषणा कृता। अद्य नवदिल्ल्याम् आयोजितस्य अमेजन सम्भव शिखर सम्मेलनस्य षष्ठे संस्करणे अमेजन संस्थाया वरिष्ठोपाध्यक्षेन अमित अग्रवालेन एषा घोषणा कृता। तेन प्रोक्तं यत् अयं निवेशः अमेजन संस्थायाः वृद्धिं विकसित भारतस्य च दृष्टिं संयोजयति। अनेन 10 लक्षं अतिरिक्तानि प्रत्यक्ष अप्रत्यक्ष कार्यस्थानानि अपि सृज्यन्ते। अस्य निवेशस्य केन्द्रबिन्दवः भविष्यन्ति कृत्रिमबुद्धिमत्ता, क्षमतावर्धनम्, तार्किक संरचनायाः उन्नतीकरणम्, उद्योग पर्यावरणस्य निर्माणम् इति। विदेश सचिवः विक्रम मिश्री अमेरिकादेशस्य उपव्यापार प्रतिनिधिना रिक सुड्जर इत्यनेन सह मिलितवान्। उभाभ्यां नेतृभ्यां भारत अमेरिका आर्थिक प्रौद्योगिकी सहभागित्वं, वर्तमान व्यापार वार्ताः, उभयो देशो मध्ये व्यापारस्य सशक्त आपूर्ति श्रृंखलाया च प्रोत्साहनाय अवसराश्च विस्तरेण चर्चिताः। बेल्जियम देशस्य सर्वोच्च न्यायालयेन भारतीय पलायकः मेहुल चौकसी इत्येतस्य प्रत्यर्पणस्य याचिका निरस्तीकृता। एंटवर्प नगरे स्वस्य निगडनं विरुद्धं चौकसी इत्येतस्य अनुरोधमादृत्य बेल्जियम देशस्य ब्रुसेल्स राजधान्याः कोर्ट ऑफ कैसेशन इत्यनेन न्यायालयेन ह्यः वादश्रवणं विहितम्। सममेव भारतस्य पक्षे निर्णयोऽपि श्रावितः। ध्यास्पदं वर्तते यत् चौकसी वर्याय 18-2000तमवर्षात् 22-2000तमवर्षं यावत् 6 बैंकानां 13 कोटि रूप्यकाणां भ्रष्टाचारस्य आरोपः वर्तते। केन्द्रीय स्वास्थ्य मन्त्रालयेन विश्व स्वास्थ्य संघटनेन सह सहभागितां विधाय अद्य नवदिल्ल्यां महिलानां बालिकानां च स्वास्थ्यं तथा सुजीवनम् अधिकृत्य मासात्मकः दिल्ली मेट्रो अभियानं प्रचालितम्। स्वास्थ्य परिवार कल्याण मन्त्रालयेन कथितं यत् अस्याभियानस्य उद्देश्यम् अस्ति यत् मेट्रो यानेषु तथा केषुचित् स्थानकेषु प्रदर्शितानां सन्देशानां माध्यमेन लक्षशः यात्रिकाः जागरूकाः भवेयुरिति। अद्य जयपुरनगरे राजस्थान प्रवासी दिवसः आचर्यते। अस्मिन् उत्सवे भारतस्य विभिन्न राज्येभ्यः विदेशेभ्यश्च आगताः प्रवासिनः राजस्थानस्य प्रवासी दिवसमालक्ष्य सहभागित्वं कुर्वन्ति। अस्य उत्सवस्य प्रमुखोऽभिप्रायः अस्ति यत् प्रवासी राजस्थान निवासिनां स्वसंस्कृतिमूलै सह सम्बद्धं सुदृढं कर्तुं तेषां च राज्ये विकासे योगदानं प्रदातुं सुनिश्चितं वर्तते। उद्घाटन समारोहे भाषमाणः मुख्यमंत्री भजनलाल शर्मा अवदत् यत् राजस्थाने व्यापार उद्योगयोः कृते अपारं सामर्थ्यं विद्यते। चेन्नई नगरे संजातायां स्क्वैश विश्वकप स्पर्धायाः पूल बी इति वर्गे भारतदलेन स्विट्जरलैंड दलं 4-0 इत्यंकान्तराले पराजित्य उत्कृष्टः आरम्भः कृतः। मुख्यवार्ताः पुनरेकवारम्। राष्ट्रपतिः द्रौपदी मुर्मुः उक्तवती यत् भारतं तत्राष्ट्रं भवितुमर्हति यत्र मानवाधिकाराणां न केवलं रक्षणं भवति अपि च तेषां सम्मानं भवति। भारतस्य प्रमुख सांस्कृतिक आध्यात्मिक महोत्सवेषु अन्यतमः दीपावली पर्व अद्य यूनेस्को इत्याख्यायाः अमूर्त सांस्कृतिक सूच्यां समाविष्टः। अमेरिकादेशस्य बृहत् टेक् ज्वाइंट अमेजन इत्यनेन समवायेन 30-2000तमवर्षपर्यन्तं भारते 35 कोटि रूप्यकाणां निवेशस्य घोषणा कृता। बेल्जियम देशस्य सर्वोच्च न्यायालयेन भारतीय पलायकः मेहुल चौकसी इत्येतस्य प्रत्यर्पणस्य याचिका निरस्तीकृता। अपि च चेन्नई नगरे संजातायां स्क्वैश विश्वकप स्पर्धायाः पूल बीति वर्गे भारतदलेन स्विट्जरलैंड दलं 4-0 इत्यंकान्तराले पराजित्य उत्कृष्टः आरम्भः कृतः। इति वार्ताः।